इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि झाः। अथ वार्ताः। राष्ट्रपतिः द्रौपदी मुर्मुः, प्रधानमन्त्री नरेन्द्रमोदी च पेरिस ओलम्पिक क्रीडायां रजत पदकं विजेतारं नीरज चोपराम अभिनन्दितवन्तौ। राष्ट्रपतिः मुर्मुः एकस्मिन् सामाजिक अन्तर्जाल पटले अवोचत् यत् भारतं तस्य विषये गौरवान्वितः अस्ति, सहैव सः सदैव यूनां कृते प्रेरणादायको भविष्यति। स्वसन्देशे श्रीमोदी प्रोदीरितवान् यत् नीरजः स्वप्रतिभां मुहुर्मुहुः प्रदर्शितवान्। असौ अवोचत् यत् भारतं बहु प्रसन्नम् अस्ति यतोहि सः क्रीडायाम् उत्तम प्रदर्शनम् अकरोत्। विदेशमन्त्री डॉ एस जयशंकरः अद्यारभ्य मालदीवस्य त्रिदिवसीय आधिकारिक यात्रायां भविष्यति। यात्रायाः उद्देश्यमस्ति द्वयोः देशयोर्मध्ये सुदृढं द्विपक्षीय सम्बन्धवर्धनम्। अवधेयं यत् मालदीवः भारतस्य प्रमुखः समुद्रीय प्रतिवेशी वर्तते। प्रधानमन्त्रिणः नरेन्द्रमोदिनः शनिवासरे भूस्खलनेन व्याकुलितं वायनाडनगरं प्रति भ्रमणं निर्धारितमस्ति। प्रधानमन्त्रिणः कुन्नूर वायनाड नगरयोः भ्रमणार्थं सर्वाः व्यवस्थाः क्रियन्ते। यात्रायाः पूर्वं कुन्नूर वायनाड नगरयोः सुरक्षा समितयः अपि आयोजिताः। अत्रान्तरे केरल कर्णाटकयोः सेनाविभागेभ्यः आहुताः प्रायः 500 सैनिकाः वायनाड नगरात् प्रत्यागन्तुं निश्चितवन्तः। नवनिर्मितं बैली सेतुं सुदृढीकर्तुं दलमेकम् उदग्र विमानान्वेषणं दलं च इतोऽपि कतिपयानि दिनानि यावत् वायनाड नगरे एव स्थास्यन्ति। अद्य अपराह्णे मण्डल समाहर्ता कार्यालये सशस्त्र सेनाबलं स्नेहपूर्वकं गमनानुमतिं प्राप्तवत्। राज्यमन्त्रिणौ पीए मोहम्मद रियासः, एके ससीन्द्र च उपस्थितौ आस्ताम्। विगत नवदिनानि यावत् प्रचलितस्य अन्वेषणस्य उद्धारकार्यस्य च कृते स्थानीय जनैः दत्त समर्थनाय सेनाकर्मचारिणः कृतज्ञतां प्रकटितवन्तः। बांग्लादेशे नोबेल पुरस्कार विजेतुः प्रोफेसर मुहम्मद यूनुसस्य नेतृत्वे अल्पावधिक रूपेण नियोजितं प्रशासनं शपथ वचनं स्वीकृतवान्। अनेन सहैव सेना प्रमुखः जनरल वकार उज जमाम इत्येषः सूचितवान् यत् प्रायशः 15 जनाः अपि अस्य अल्पावधिक प्रशासनस्य परामर्शाय शपथ वचनं स्वीकर्तुं शक्नुवन्ति। असौ देशे त्रिषु चतुर्षु दिवसेषु स्थितिः सामान्या भविष्यति इति सम्भावनां प्रकटितवान्। अत्रान्तरे सेनया देशवासिनः निवेदिताः यत् केषाञ्चित् जनानां पार्श्वे यदि हिंसावध पारस्परिक संघर्षाणां सञ्चेतना आगमिष्यति तदा पीडित जनैः निकटस्थे सैन्य शिविरे सम्पर्कः साधितव्यः इति। ह्यः पेरिस ओलम्पिक क्रीडायां भारतीय हॉकी दलेन कांस्य पदकं विजितम्। ह्यः भारतीय दलेन स्पेन दलं 2-1 इत्यंकान्तरालेन पराजितम्। राष्ट्रपतिः द्रौपदी मुर्मुः, प्रधानमन्त्री नरेन्द्रमोदी च भारतीय हॉकी दलाय अभिनन्दनानि अयच्छताम्। राष्ट्रपतिना उक्तं यत् एषः विजयः भारतस्य कृते गौरवस्य विषयो वर्तते। प्रधानमन्त्रिणा उक्तं यत् भारतीय हॉकी दलस्य सफलता तस्य कौशलस्य दलभावनायाः च प्रतिबिम्बम् अस्ति। सः अवदत् यत् भारतीयानां हॉकी क्रीडया सह भावनात्मकः सम्बन्धः अस्ति इति। पेरिस ओलम्पिक इति क्रीडाकुम्भे भारतीयः मल्लयोद्धा अमन सेहरावतः अल्बानिया देशस्य जलिम खान अबकारोवं पराजित्य 57 किलोग्राम वर्गस्य फ्रीस्टाइल इत्यस्य उपान्त्य चक्रीय क्रीडायां प्रवेशं कृतवान्। तस्य विजयेन भारतस्य मल्लयुद्धे पदकस्य आशा पुनः प्रज्वलिता। विशेषतः ह्यस्तनस्य विनेश फोगाटस्य हृदय विदारक प्रकरणानन्तरम् इति वार्ताः।